अस्ति स्वस्तरुणीकराग्र विलसत् कल्प प्रसूना प्लुतम् वस्तु प्रस्तुत वेणुना दलहरी निर्वाण निर्व्याकुलम् स्रस्त स्रस्त निरुद्ध निधि विलसद् गोपी सहस्रावृतम् हस्तन्यस्तन तापवर्गमखिलोदारम् किशोराकृति चातुर्यैक निधान सीम चपलापाङ्गच्छटा मन्दरम् लावण्यामृत वीचिलालितर्जुनम् लक्ष्मी कटाक्षादृतम् कालिन्दी पुलिनाङ्गण प्रणयिनम् कामावताराङ्कुरम् बालम् नीलममीवयम् मधुरिमस्वाराज्यमाराध्नुमः बर्होत्तम् स विलासि कुन्तलभरम् माधुर्यमग्नाननम् प्रोन्मीलन्नव यौवनम् प्रविलसद्वेणु प्रणादामृतम् आपीनस्थलकुड्मलाभिरभितो गोपीभिराराधितम् ज्योतिश्चेतसि नश्च कास्ति जगतामेकाभिरामाद्भुतम् मधुरतरस्मितामृत विमुग्रमुखाम्बुरुहम् मतशिखि पिञ्जलाञ्छित मनोज्ञक च प्रचयम् विषय विषामिषग्रसन कृध्नुषितेतसि मे विपुल विलोचनम् किमपि धाम च कास्ति चिरम् मुकुलायमान नयनाम्बुजम् विभोः मुरलीनिनादमकरन्द निर्भरम् मुकुरायमाण मृदुकण्ड मण्डलम् मुखपङ्कजम् मनसि मे विजृम्भता कमनीय किशोर मुग्धमूर्तेः कलवेणुक्वणिता धृतानेन्दो मम वाचि विजृम्भता मुरारेः मधुरिम् नः कणिकापि कापि कापि मदशिखण्डि शिखण्ड विभूषणम् मदनमन्थर मुग्धमुखाम्बुजम् व्रजवधूनयनाञ्जलवञ्चितम् विजयताम् मम वाङ्मय जीवितम् पल्लवारुणपाणि पङ्कज सङ्गि वेणुरवाकुलम् फुल्लपाटल पाटली परिवादि पाद सरोरुहम् उल्लसन्मधुराधरद्युतिमञ्जरी सरसाननम् वल्लवी कुच कुम्भ कुङ्कुम पङ्किलम् प्रभुमाश्रये अपाङ्गरेखाभिरभङ्गुराभिः अनङ्गलीलारसरञ्जिकाभिः अनुक्षणम् वल्लव सुन्दरीभिः अभ्यर्च्यमानम् विभुमाश्रयामः हृदये मम हृद्य विभ्रमाणाम् हृदयम् हर्ष विशाल लोलनेत्रम् तरुणम् व्रज बाल सुन्दरीणाम् तरलम् किञ्चन धाम सन्निधत्ता निखिल भुवन लक्ष्मी नित्य लीलास्पदाभ्याम् कमल विपिन वीथि सर्व सर्वङ्गशाभ्याम् प्रणमत भयदान प्रौढिकाटोद्धताभ्याम् किमपि वहतु चेतः कृष्णपादाम्बुजाभ्याम् प्रणय परिणताभ्याम् प्राभवालम्बनाभ्याम् प्रतिपद ललिताभ्याम् प्रत्यहम् नूतनाभ्याम् परलिमुहुरधिकाभ्याम् प्रश्नुवल्लोचनाभ्याम् प्रभवतु हृदये नः प्राणनाथः किशोरः माधुर्यवारिधिमदान्धतरङ्गभङ्गी शृङ्गारसङ्कलितशीतकिशोरवेषम् आमन्दहासललितानन चन्द्रबिम्बम् आनन्दसम्प्लवमनुप्लवताम् मनो मे अव्याजमञ्जुलमुखाम्बुजमुग्धभावैः आस्वाद्यमान निज वेणु विनोदनादम् आक्रीडतामरुणपाद सरोरुहाभ्याम् आर्द्रे मदीय हृदये भुवनार्द्रमोजः मणिनूपुरवाचालम् वन्दे तच्चरणम् विभो ललितानि यदीयानि लक्ष्माणि व्रजवीथिषु मम चेतसि स्फुरतु वल्लवी विभोः मणिनूपुरप्रणयि मञ्जुषिञ्चितम् कमलावनेचरकलिन्दकन्यका कलहंसकण्ठकलकूजिता धृतम् तरुणारुणकरुणामय विपुलाय तनयनम् कमलाकुचकलशीभरपुलकीकृतहृदयम् मुरलीरवतरलीकृतमुनिमानसनलिनम् मम खेलति मम चेतसि मधुराधरममृतम् आमुग्धमर्दनयनाम्बुजचुम्ब्यमानहर्षाकुलव्रजवधूमधुरहननेन्दो आरब्धवेणुरवमादिकिशोरमूर्तेः आविर्भवन्ति मम चेतसि केऽपि भावाः कलक्वणितकङ्कणम् कर्णिरुद्धपीताम्बरम् क्रमप्रसृतकुन्तलम् कलितबर्हभूषम् विभो पुनः प्रसृतिचापलम् प्रणयिनी भुजायन्त्रितम् मनः पुरतु मानसे मदनकेलिशय्योत्थितम् स्तोकस्तोकनिरुध्यमानमृदुलप्रस्यन्दिमन्दस्मितम् प्रेमोद्भेदनिरर्गलप्रसमरप्रव्यक्तरोमोद्गमम् श्रोतृश्रोत्रमनोहरव्रजवधो लीलामिथो जल्पितम् मिथ्यास्वापमुपास्महे भगवतः क्रीडानिमीलदृशः विचित्रपत्राङ्गुरशालिबालास्तनान्तरम् मौनिमनोन्तरम् वा अपास्य वृन्दावनपादपास्यम् उपास्यमन्यन्न विलोकयामः सार्धम् समृद्धैरमृतायमानैः आध्मायमानैर्मुरलीनिनादैः मूर्धाभिषिक्तम् मधुराकृतीनाम् बालम् कदा नाम विलोकयिष्ये शिशिरीकुरुते कदा नुनः शिखिपिञ्चाभरणः शिशुर्दृशोः युगलम् विगलन्मधुद्रव स्मितमुद्रा मृदुना मुखेन्दुना कारुण्यगर्भुरकटाक्षनिरीक्षणेन तारुण्यसंवलितशैशववैभवेन आपुष्णता भुवनमद्भुतविभ्रमेण श्रीकृष्णचन्द्रशिशिरीगुरुलोचनम् मे कदा वा कालिन्दी कुवलयदलश्यामलतराः कटाक्षा लक्ष्यन्ते किमपि करुणाबीजिनिचिताः कदा वा गन्धर्वप्रतिभटजटा चन्द्रशिशिराः किमप्यन्तस्तोषम् ददति मुरलीकेलिनदा अधीरमालोकितमार्द्रजल्पितम् गतम् च गम्भीरविलासमन्थरम् अमन्दमालिङ्गितमाकुलोन्मदस्मितम् च तेनाथ वदन्ति गोपिकाः अस्तोकस्मितभरमायतायताक्षम् निःशेषस्तनमृदितम् व्रजाङ्गनाभिः निःसीमस्तवकितनीलकाञ्जिधारम् दृश्यासम् त्रिभुवनसुन्दरम् महस्ते मयि प्रसादम् मधुरैकटाक्षैः वंशीनिनादानुचरैर्विधेहि त्वयि प्रसन्ने किमिहापरैर्नः त्वय्यप्रसन्ने किमिहापरैर्नः निबद्धमुग्धाञ्जलिरेशयाचे नीरन्ध्रदैन्योन्नतमुक्तकण्ठम् दयाम्बुधे देव भवत्कटाक्षदाक्षिण्यलेशेन सकृन्निषिञ्च पिञ्छावतम् सरचनोचितकेशपाशे पीनस्तनीनयनपङ्कजपूजनीये चन्द्रारविन्दविजयोद्य तवक्रबिम्बे चापल्यमेति नयनम् तव शैशवेनः त्वच्छैशवम् त्रिभुवनाद्भुतमित्यवैमि यच्चापलम् च मम वागविवादगम्यम् तत् किम् करोमि किरणन्मुरलीविलासमुग्धम् मुखाम्बुजमुदीक्षितुमीक्षणाभ्याम् पर्याजितामृतरसानि पदार्थभङ्गी फल्गूनि वल्गितविशालविलोचनानि बाल्याधिकानि मदवल्लभभावितानि भावे लुठन्ति सुदृशाम् तव जल्पितानि पुनः प्रसन्नेन मुखेन्दुतेजसा पुरोवतीर्णस्य कृपामहाम्बुधे तदेव लीलामुरलीरवामृतम् समाधिविघ्नाय कदानुमे भवेत् भावेन मुग्धचपलेन विलोकनेन मन्मानसे किमपि चापलमुद्वहन्तम् लोलेन लोचनरसायनमीक्षणेन लीलाकिशोरमुपगूहितुमुत्सुकोऽस्मि अधीरबिम्बाधरविभ्रमेण हर्षार्द्रवेणुस्वरसम्पदा च अनेन केनापि मनोहरेण हाहन्त मनोधुनोति यावन्न मे निखिलमर्मदृढाभिघात निःसन्धिबन्धनमुदेति नवोपतापः तावद्विभो भवतु तावकवक्रचन्द्रचन्द्रातपद्विगुणिता मम चित्तधारा यावन्न मे नरदशा दशमीदृशोऽपि रन्ध्रादुदेति तिमिरीकृत सर्वभावा लावण्यकेलिभवनम् तव तावदेतु लक्ष्म्याः समुद्गणित वेणुमुखेन्दुबिम्बम् आलोललोचन विलोकित केलिधारा नीराजिताग्रसरणे करुणाम्बुराशे आर्द्राणि वेणुनिनतैः प्रतिनादपूरैः आकर्णया विमणिनूपुरशिञ्चितानि हे देव हे दयित हे जगदेकबन्धो हे कृष्ण हे चपल हे करुणैकसिन्धो हे नाथ हे रमण हे नयनाभिराम हा हा कदानुभवितासि पदम् दृशोर्मे अमून्यधन्यानि दिनान्तराणि हरे त्वदालोकनमन्तरेण अनाथबन्धो करुणैकसिन्धो हा हन्त हा हन्त कथम् नयामि किमिव शृणुमः कस्य ब्रूमः कथम् कृतमाशया कथयत कथाम् धन्या मन्यामहे हृदये शयम् मधुरमधुरस्मेराकारे मनोनयनोत्सवे कृपणकृपणा कृष्णे कृष्णाचिरम् बदलम्बते आभ्याम् विलोचनाभ्याम् अम्बुजदलललितलोचनम् बालम् द्वाभ्यामपि परिरब्धुम् दूरे मम हन्त दैव सामग्री अश्रान्तस्मितमरुणारुणाधरोष्टम् हर्षार्द्रद्विगुणमनोज्ञवेणुगीतम् विभ्राव्यद्विपुलविलोचनार्धमुग्धम् वीक्षिष्ये तव वदनाम्बुजम् कदा नु लीलायताभ्याम् रसशीतलाभ्याम् नीलारुणाभ्याम् नयनाम्बुजाभ्याम् आलोकयेदद्भुतविभ्रमाभ्याम् बालः कदा कारुणिकः किशोरः बहुलचिकुरभारम् बद्धविंशावतंसम् चपलचपलनेत्रम् चारुबिम्बाधरोष्ठम् मधुरमृदुलहासम् मन्थरोदारलीलम् मृगयति नयनम् मे मुग्धवेषम् मुरारे बहुलजलदच्छायाचोरम् विलासभरालसम् मदशिखिशिखालीलोत्तंसम् मनोज्ञमुखाम्बुजम् कमपि करुणापाङ्गोदग्र प्रसन्नजगज्जितम् मधुरिमपरिपाकोद्रेकम् वयम् मृगयामहे परामृश्यम् दूरे परिषदि मुनीनाम् व्रजवधू दृशाम् दृश्यम् सशश्वत्त्रिभुवनमनोहारि वपुषम् अनामृश्यम् वाचाम् अणितमुदयानामपि कदा दरीदृश्ये देवम् दरदलितनीलोत्पलनिभम् लीलाननाम्बुजमधीरमुदीक्षमाणम् नर्माणि वेणुविवरेषु निवेशयन्तम् दोलायमाननयनम् नयनाभिरामम् देवम् कदानुदयितम् व्यतिलोकयिष्ये लग्नम् मुहुर्मनसि लम्पटसम्प्रदायि लेखाविलेखनरसज्ञमनोज्ञवेशम् लज्जन्मृतस्मितमधुस्नपितादरांशुराकेन्दुलालितमुखेन्दुमुकुन्दबाल्यम्